एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नवीन राष्ट्रपतेः चयनाय अद्य मतदानम् सम्पद्यमानम् वर्तते। मतदानम् पूर्वाह्नस्य दशवादनात् दिवा त्रिवादनम् यावद् भवति। नयाँ बानेश्वरस्थितस्य संसद भवनस्य लोत्स्यसभाकक्षे सम्पद्यमानाय मतदानाय आवश्यकम् सम्पूर्ण पूर्वकार्यम् प्रपूरितमिति निर्वाचनाधिकृतः महेश शर्मा पौडेलः अज्ञापयत्। राष्ट्रपतेर्निर्वाचने संघीय संसदः द्वात्रिंशदधिकत्रिशतम् प्रदेशसभानाम् च पञ्चाशदधिकपञ्चशतम् च सदस्याः मतदातारः सन्ति। संघीय संसदः प्रदेशसभानाम् च सदस्यानाम् कृते एतस्मिन् कक्षे भिन्नम् मतदानकेन्द्रद्वयम् निर्मितम् वर्तते। निर्वाचने संघीय सांसदस्य एकमतस्य कृते उनाशीतिः, प्रदेशसभानाम् च सदस्यस्य एकमतस्य कृते अष्टाचत्वारिंशद् मतभारः निर्धारितो वर्तते। राष्ट्रपति पदस्य निर्वाचने नवदलीय गठबन्धनस्य पक्षतो नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः, नेकपा एमाले दलस्य पक्षता उपाध्यक्ष सुभाष चन्द्र नेवाङ च प्रत्याशिनौ स्तः। निर्वाचनाधिकृतस्य कार्यालयेन दिवा त्रिवादने मतदान सम्पादनम् अनु मतगणना कार्यम् प्रारब्धुम्, सायम् सप्तवादनस्य अभ्यन्तरे परिणामम् उद्घोषयितुम् च पूर्वकार्यम् कृतमिति सहायक निर्वाचनाधिकृतः अमृता कुमारी शर्मा अज्ञापयत। निर्वाचने मतदानाय सर्वेषाम् प्रदेशानाम् सांसदाः काष्ठमण्डपम् सम्प्राप्ताः सन्ति। राप्रपा नाम्ना राष्ट्रिय प्रजातन्त्र दलेन अद्य सम्पद्यमाने राष्ट्रपते निर्वाचने मतदानम् न कर्तुम् निर्णीतम् वर्तते। राप्रपा दलस्य धुम्बाराही वर्तिनी केन्द्रीय कार्यालय ह्या उपविष्टेन केन्द्रीय कार्य सम्पादन समितेः उपवेशेन राष्ट्रपते निर्वाचने तटस्थम् स्थातुम् निर्णीतम् अस्ति। राष्ट्रपति पदस्य दौ एव प्रत्याशिनौ सक्रिय राजनीतौ स्तः इत्यतः राष्ट्रपति पदे निर्वाचनानन्तरम् निष्पक्षा अभिभावकीया च भूमिका निर्वक्ष्यते इत्यत्र स्वदलस्य विश्वासाभावस्य कारणेन निर्वाचने सहभागी न भवितुम् निर्णीतमिति राप्रपा दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन अज्ञापयत। राष्ट्रपति निर्वाचने राष्ट्रिय प्रजातन्त्र दलस्य चतुर्दश संघीय सांसदाः, अष्टाविंशति प्रदेशसभा सांसदाश्च मतदातारो वर्तन्ते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते महिला सशक्तिकरणम् क्षमतायाः विकासश्च सर्वकारस्य नीतिर्वर्तते। त्रयोदशाधिक शततमस्य अन्तर्राष्ट्रिय महिला दिवसस्य अवसरे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रालयेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री प्रचण्ड महिलानाम् सशक्तिकरणाय विकासाय च सर्वकारः प्राथमिकताम् प्रददातीति संस्पष्टयत। प्रधानमन्त्री प्रचण्ड महिलानाम् प्रजनन स्वास्थ्य शिक्षायाम् च सुधारः जायमानो वर्तते इति चर्चयन् अवदत् सूचना प्रविधि महिला मैत्री विधीयते। असौ सप्तस्वेव प्रदेशेष् स्तनार्बुदस्य गर्भाशयार्बुदस्य च निःशुल्कम् उपचारस्य व्यवस्था विधास्यते इति अबोधयत्। प्रधानमन्त्री प्रचण्डः अकथयत् महिलाधिकाराणाम् संस्थापनाय नीतिगतायाम् विधिगतायाम् च संरचनायाम् सुधारः जायमानो वर्तते। कार्यक्रमे संचार सूचना प्रविधि मन्त्री रेखा शर्मा अवोचत् महिलानाम् सम्मानजनक जीवनयापनाय राज्येन अधिकतम प्रयत्नः विधीयमानो वर्तते। मन्त्री शर्मा संविधाने विधौ च व्यवस्थायाम् सत्यमपि महिलानाम् कृते पैतृक सम्पत्तेः प्राप्तिम् व्यवहारे क्रियान्वेतुम् समाह्वयोस्तीति प्रावोचत्। ह्या एव सूचना प्रविधौ महिला इति संस्थया आयोजितम् सूचना प्रविधि महिला सम्मेलनम् सम्बोधयन्त्री संचार मन्त्री शर्मा विज्ञाने आगतेन परिवर्तनेन समाजस्य रूपान्तरणाय योगदानम् विधातव्यम् इति अभाषत। मन्त्री शर्मा अकथयत् सूचना प्रविधेः सदुपयोगेन राजनीतिक सामाजिक सांस्कृतिक रूपान्तरणम् विधातुम् समयः प्राप्तोऽस्ति। देवराज घिमिरे कथयति सहकारी क्षेत्रम् अतिरिक्त समस्यातो रक्षितुम् वैधानिक सुधार नियामकीय कठोरतायाः अवलम्बनम् च आवश्यके स्तः। नेपाल संचय नारायण केन्द्रीय सहकारी संघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे सभामुखः घिमिरे सहकारी क्षेत्रे सुशासनाय स्पष्टतया अधिनियमस्य विदेश च आवश्यकता अस्ति, एतदर्थञ्च सर्वकारेण अनुकूलेन भाव्यमिति विचारम् व्यक्तवान्। प्रतिग्रामम् अल्पम् धनम् संकलय्य वित्तीयोपार्जने विकासिकानाम सामाजिक संस्थानाम रूपेण सहकारी संस्थानाम विकासा सम्भूतो भवति त्यतः एवं विधानाम संस्थानाम रक्षणम समेषाम दायित्वम भवति इति सभामुखः घिमिरे उदयरयत। पश्चात्तन समय सहकारी संस्थानाम संचालकैः वञ्चनम विधीयमानम् अस्ति इति घटनाः वर्धमानाः सन्ति त्यत्र असौ चिन्ताम् च प्राकटयत्। संघीय विषय सामान्य प्रशासन मन्त्री अमनलाल मोदी सर्वकारीय कर्मचारीणाम् व्यवस्थित रूपेण स्थानान्तरणस्य प्रणाली स्वस्यैव कार्यकाले प्रारप्स्यते इति प्रतिबद्धताम् व्यनक्ति। मन्त्रालय ह्य संचारकर्मिभिः सह वितायाम् अन्तरक्रियायाम् मन्त्री मोदी कर्मचारीणाम् स्थानान्तरणस्य विषये अधिक ध्यानस्य केन्द्रीकरणस्य कारणेन अन्यानि कार्याणि प्राथमिकतायाम् न सन्ति त्यतः व्यवस्थित स्थानान्तरणस्य प्रणाल्याः संस्थापनाय गृह कार्यम् विधीयमानम् अस्ति इति अज्ञापयत्। उपसभामुखा इन्दिरा राणा मगर गदति महिलाः जलवायोः परिवर्तनस्य प्रभावेन पीडिताः सन्ति। अन्तर्राष्ट्रिय महिला दिवसस्य अवसरे पूर्वेद्युः सर्वोच्च शिखर सगरमाथावर्तिनी खुम्बु पासाङ लामु ग्रामपालिकायाः चतुर्थ वडा क्षेत्र स्थिते खुम्जुङ स्थाने आयोजिते कार्यक्रमे असौ आत्मना विहितायाः खुम्बु क्षेत्रस्य पदयात्राया क्रमे जलवायोः परिवर्तनस्यैव कारणेन महिलाभिः बहव्यः समस्याः सोढव्याः दृष्टाः इति अब्रवीत्। पोखरा अन्तर्राष्ट्रिय विमानस्थले अद्यतः नियमित रूपेण रात्रिकालीको उड्डयनम् प्रारभ्यते। विमानस्थले उपकरणानाम् आधारेण उड्डयनावतरण प्रविधेः प्रणाल्यः क्रियान्वयनानन्तरम् प्रथमवारं बुद्धवायु सेवया पोखरा अन्तर्राष्ट्रिय विमानस्थले अस्यैव फाल्गुनस्य एकादश दिवसात् आईएफआर नाम्नो उपकरणानाम् आधारेण उड्डयनावतरण प्रविधेः प्रणाली क्रियान्विता वर्तते। सम्प्रति विमानस्थलात् प्रातः षड्वादनतः चतुर्वादनम् यावदेव विमानानाम् उड्डयनम् अवतरणम् च विद्यमाने स्तः। अतपरम् आवश्यकतायाः आधारेण रात्रौ द्वादशवादन पर्यन्तम् उड्डयनम् विधास्यते इति ज्ञापितमस्ति। जनता समाजवादी दल नेपालेन अद्य केन्द्रीय कार्यकारिणी समितेः उपवेशः आहूतो वर्तते। बालकुमारी वर्तिनी दलस्य कार्यालये दिवा त्रिवादने आहूते उपवेशे। उपराष्ट्रपतेः प्रत्याशितायाः सामाजिक राजनीतेश्च विषयेषु विमृश्यते इति जसपा दलेन ज्ञापितं वर्तते। जसपा दलस्य चतुर्दश संघीय सांसदाः द्वाविंशति प्रादेशिक सांसदाश्चेति आहत्य षड्त्रिंशत् सांसदाः वर्तन्ते। प्रतिनिधिसभायाः समानुपातिक पक्षस्य एकस्य सांसदस्य स्थानं रिक्तं वर्तते। मेलञ्ची पेयजलस्य वितरणाय काष्ठमण्डप उपत्यकायां विस्तारितासु नलिकासु क्षरणं सम्भूतं वर्तते। पश्चात्तन दशकात् इतः विस्तारितासु नवीन नलिकासु क्षरणं जातमिति काष्ठमण्डपोपत्यका पेयजल संस्थानस्य आयोजना क्रियान्वयन निर्देशनालयो ज्ञापयति। निर्देशनालयेन ऐशयिक विकास कोषस्य ऋण सहयोगेन त्रयोदशाधिक द्विसहस्रतम ख्रिष्टवर्षतः चक्रपथस्य अभ्यन्तरे सहस्र किलोमिटर दूरी पर्यन्तं नलिका विस्तारिता वर्त आसीत्। नवीन नलिकासु अन्य निकायैः कार्य सम्पादनस्य कारणेन प्राप्ताया क्षतेर हेतोः क्षरणं भूतमिति निर्देशनालयस्य सूचनाधिकारी चन्द्रकुमारी पुनश्रेष्ठः अगदत्। असौ मल निष्कासन प्रणाल्याः मार्गस्य च निर्माणस्य विद्युत भूमिगतीकरणस्य च क्रमे नलिकायां जायमानायाः क्षतेः कारणेनापि मार्गस्य बहुषु स्थानेषु क्षरणं दृष्टम् इति अतर्कयत्। राष्ट्रसंघस्य महासचिवस्य एन्टोनियो गुटरेस इत्यस्य युक्रेन देशस्य राष्ट्रपतेः भोलोदमिर जेलिम्स्की इत्यस्य च मध्ये मेलवार्ता सम्भूता अस्ति। एतयोर्मध्ये ह्य युक्रेन देशस्य राजधान्यं कीव स्थाने मेलवार्ता सम्भूतेति राष्ट्रसंघीय महासचिवस्य प्रवक्ता ज्ञापयति। मेलवार्ताया क्रमे रूस युक्रेन देशयोर्मध्ये द्वाविंशत्युत्तर द्विसहस्रतमे ख्रीष्टवर्षे जुलाई मासे धृताया मलखाद्यान्नानां निर्यातस्य संविधाया विषये विमृष्टं वर्तते।